ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। धन्यवादः महोदय।
धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति, तत्र लृट् लकारः आत्मनेपदी धातूनां लृट् लकारः इत्युक्ते भविष्यत्कालरूपं। तत्र साधारणरूपम् अस्ति, सामान्यरूपम् अत्र अस्ति, तत्र पुटसङ्ख्या अस्ति, तत्र 680 पुटे अत्र रूपमस्ति। एकवारं तद्रूपं पश्यामः। तत्र सूर्यकुमारी भगिनी एकवारं पठति वा भगिनी, तत्र वन्द धातोः रूपाणि सन्ति तत्र 680 पुटे। तत्र 680
आत्मनेपदिनां धातूनां लिप्लकारे रूपाणि एवं भवन्ति। वन्दधातुः प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः। वन्दिष्यते प्रथमपुरुषः, वन्दिष्यते, वन्दिष्येते, वन्दिष्यन्ते। द्वितीय बहुवचनानि। मध्यमपुरुषः वन्दिष्यसे, वन्दिष्येते, वन्दिष्यद्वे। उत्तमपुरुषः वन्दिष्ये, वन्दिष्यावहे, वन्दिष्यामहे।
हा इति समीचीनं भगिनि। इदानीं तत्र शोभा भगिनी, भवती तु तत्र लट्लकाररूपाणि स्मरति वा, तत्र वन्दते इति आत्मनेपदधातोः?
आम् आं महोदय, वन्दते, वन्देते, वन्दन्ते, अनन्तरं वन् एकनिमिषं महोदय, वन्दसे, वन्देथे, वन्दध्वे, वन्दे, वन्दावहे, वन्दामहे।
हा इति समीचीनं भगिनि। अतः तत्र यदि लट्लकाररूपाणि जानीमः, तत्र लृट्लकाररूपं कर्तुं शक्नुमः वा?
हा कर्तुं शक्नुमः महोदय। तत्र वन्दे वन्दते इत्यस्य वन्दिष्यते इति भवति, ऊहं कर्तुं शक्नुमः।
खलु तत्र किम् अस्ति, तत्र अन्तिमभाग तु समानमेव, तत्र लट्लकारे लृट्लकारे वन्दते, वन्दिष्यते, वन्द्येते, वन्दिष्येते। अतः तत्र अन्तिमभागः तु समानं, मध्ये केवलं तत्र इष् इति स्थापनीयमस्ति साधारणतया। किन्तु एतदपि साधारणं सामान्यरूपं नास्ति, तत्र अग्रे अपि किञ्चित् पश्यामः। किन्तु एतत् यदि किञ्चित् अभ्यासं कुर्मः, एतत् स्थापितं भवति चेत् तत्र जानीमः, तत्र लट्लकारस्य रूपम् आत्मनेपदी धातूनां रूपं जानीमश्चेत् लृट्लकाररूपाणि सुलभतया कर्तुं शक्नुमः। अतः तत्र विषयः सरलः एव, किन्तु अत्रापि केचन अंशाः सन्ति, तान् मनसि निधाय यदि कुर्मश्चेत् बहु सुलभं भवति। अस्तु, इदानीं तत्र तत्र किं कुर्मः, तत्र अन्यत् तत्र हा एतत् स्वीकुर्मः, भास् भास् भासते इति अस्ति तत्र, लक्ष्मी भगिनी तत्र भासते इति आसीत्,
तत्र भासते, भाषिष्यते, भाषिष्येते, भाषिष्यन्ते,
भगिनि प्रायश तत् कष्टकरम् अस्ति, तत्र सकारः तदनन्तरं षकारः अस्तु, अतः तत्र
भाषिष्यते, भाषिष्येते, भाषिष्यन्ते, भाषिष्यसे, भाषिष्येथे, भाषिष्यद्वे, भाषिष्ये, भाषिष्यावहे, भाषिष्यामहे।
हा इति अस्तु। इदानीं तत्र इति रूपम् अस्ति, तदनन्तरं तत्र मन् धातोः तत्र रूपम्, इदानीं विशेषरूपाणि अपि किञ्चित् परिशीलयामः। तत्र मन् धातोः रूपाणि दत्तानि सन्ति तत्र गीताञ्जलि भगिनी अग्रे तत्र कानिचन विशिष्टरूपाणि इति तत्र मन् मन्यते मंस्यते इति अस्ति मंस्यते तत्र किं भवति मन् इति धातुः किन्तु मन्यते इति आसीत् लट्लकारे इदानीं किम् अस्ति तत्र मंस्यते तत्र हा अनुनासिक इदानीं नास्ति अनुस्वारः अस्ति तत्र मंस्यते इति
अनुस्वाररूपम्
तत्र मंस्यते मंस्यते
अस्ति इत्युक्ते केवल साधारणधातुयोग इष् योग तिङ् तु नास्ति
हा इति इति
पठामि वा महोदय
अतः तत्र रूपाणि करोतु भगिनि तत्र मंस्यते मन् धातोः लृट् लकार रूपाणि
लृट् रूपाणि मंस्यते मंस्यन्ते मंस्यते मंस्येते मंस्यन्ते मंस्यते मंस्येते मंस्यद्वे मंस्ये मंस्यावहे मंस्यामहे
हा इति समीचीनं भगिनि अस्तु इदानीं तत्र अन्यत् अस्ति तत्र किं तत्र अन्यत् स्वीकुर्मः तत्र तत्र किं कुर्मः तत्र अन्यत् अस्ति तत्र हा भृत् भृत् इति स्वीकुर्मः अस्तु तत्र वर्तिष्यते इति अस्तु तत्र भृत् धातुः हा तत्र सूर्यकुमारी भगिनि भृत् धातुः
महोदय वृत् धातुः वर्तते वर्तेति वर्तिष्यति वर्तिष्येति वर्तिष्यन्ते वर्तिष्येते वर्तिष्यद्वे वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे
हा इति समीचीनं भगिनि इदानीं तत्र प्रथम अंशः अत्र स्थापनीयः अस्ति तदनन्तरम् अभ्यासमपि कुर्मः तत्र यत् कोष्टके दत्तमस्ति तत् चिन्तयामः तत् साधारणरूपम् इति तत्र वन्दिष्यते वन्दिष्यते तत्र इष्यते इष् इति मध्ये आगच्छति इति तत् चिन्तयामः तत् साधारणरूपम् अस्ति इदानीं तत्र केवलं तत्र सुलभ अवगमनार्थम् एतत् कुर्मः तत्र परस्मैपदी धातूनां रूपाणि तत्र पठति इति धातोः परस्मैपदी धातोः तत्र पठति इति पदस्य लृट् लकाररूपं किम् अस्ति
पठिष्यते
पठिष्यति खलु पठति
पठिष्यति
अतः तत्रापि पठिष्यति पठिष्यतः पठिष्यन्ति हा पठिष्यसि पठिष्या
पठिष्यतः पठिष्यामि पठिष्यावः पठिष्यामः
इति अतः तत्रापि किं भवति तत्र मध्ये इष् इष्य इति एव आगच्छति खलु तत्रापि अतः एषः अंशः समानमस्ति परस्मैपदी धातूनाम् आत्मनेपदी धातूनां लृट् लकारसमये किं भवति तत्र मध्ये इष्य इति आगच्छति तत्र पठति स्थाने पठिष्यति अत्र वन्दते स्थाने वन्दिष्यते वन्दते वन्दिष्यते पठति पठिष्यति इति प्रथमांशः सर्वे अवगच्छन्ति खलु तत्र मध्ये
तत्र एकः प्रश्नः अस्ति तत्र वृत् धातु वर्तिष्यते तु समानरूपमेव किमर्थं विशिष्टरूपं दत्तम्
तत्र आगच्छामः तत्र वदामः भगिनि तस्मिन् विषये इदानीं तत्र परस्मैपदी धातूनां तत्र लृट् लकाररूपं तु बहुवारं तस्य उपयोगं कृतवन्तः अतः तत्र लृट् लकार परस्मैपदी धातूनां लृट् लकाररूपं तत्र पठति इति वयं जानीमः तत्र पठिष्यति गच्छति किं भवति
गमिष्यति
गमिष्यति
अतः गमिष्यन्ति
हा अतः वयं जानीमः तत्र केवलं गच्छति इति स्थाने तत्र मध्ये इष्यति इति न स्थापनीयं खलु तत्र कुत्र इष्य इति स्थापनीयं
धातुसह
हा अस्तु केवलं क्रियापदेन सह न किन्तु गच्छति अस्ति चेत् तत्र गच्छिष्यति इति न, किन्तु गम् इति धातुः, तदनन्तरं ति इति अस्ति, तस्मात् गच्छति इति भवति, किन्तु तत्र गम् योगः मध्ये इष्य इति स्थापयित्वा तदनन्तरं ति इति कुर्मः, तदनन्तरं किं भवति, गच्छति अस्ति इति स्थाने गम् इष्यति गमिष्यति इति भवति, खलु? इदानीं तत्र पिबति इति तत्र किम् अस्ति, तत्र पिबति इति पदस्य पास्यति, अस्तु, तदनन्तरं तत्र नयति इति क्रियापदस्य नेष्यति, तत्र नी धातुः नेष्यति इति भवति, अतः तत्र केचन अंशाः सन्ति, तत्र लृट् लकारनिर्माणे प्रथम अंशः तत्र अस्ति धातुः आवश्यकम्, अपि यदि लट् लकाररूपं जानीमः लृट् लकारसमये मध्ये साधारणतया तत्र इष्य इति चिन्तयामः, किन्तु वस्तुतः किं मध्ये आगच्छति इत्युक्ते तत्र स्य इति आगच्छति, स्य इति एव आगच्छति तत्र, तत्र अतः तत्र मंस्यते इति अस्ति खलु, तदेव वस्तुतरूपं तत्र स्य इति मध्ये आगच्छति, अतः मंस्यते स्य, मन् योगः स्य योगः ते मंस्यते इति भवति, इदानीं तत्र किं भवति, तत्र मंस्यते मंस्येते मंस्यन्ते इति रूपाणि भवन्ति, इदानीं तदनन्तरं तत्र बन्ध धातुः अस्ति चेत् तत्र किं भवति, तत्र सकारस्य स्थाने सकारः भवति, अतः तत्र श्यते इति न भवति किन्तु श्यते इति भवति, तदनन्तरं तत्र पूर्वं बहुपूर्वम् अस्मिन् विषये चर्चितवन्तः, तत्र धातोः तत्र द्वैविध्यम् अस्ति, तत्र परस्मैपदी धातु आत्मनेपदी धातु एतत् जानीमः, किन्तु अन्यविधद्वैविध्यम् अस्ति, तत्र पठति इति पठिष्यति इति भवति, अन्यत् पर तत्र पिबति इति तत्र पास्यति इति भवति, तत्र कोऽपि जानाति वा तत्र धातोः अन्यविध, तत्र अत्र श्यति इति केवलं श्यति इति नास्ति, किन्तु तत्र वन्दश्यते इति नास्ति खलु, तत्र वन्दते वन्दश्यते इति नास्ति, मंस्यते मंस्यते इति अस्ति, यदि तत्र वन्द् इति धातुः अस्ति चेत् तत्र वन्दश्यते इति भवेत्, किन्तु तत्र वन्दिष्यते इति अस्ति, मध्ये किम् आगतम्, इदागमः भवति, अतः तत्र सेट् धातुः अस्ति चेत् तत्र इकारस्य आदेशः भवति, अनीट् अस्ति चेत् तत्र इकारः नागच्छति, अतः तत्र अपि अन्य तत्र प्रथमतया धातुः आवश्यकं, मध्ये स्य इति स्थापनीयं, लट्लकाररूपं स्वीकृत्य मध्ये स्य इति स्थापनीयं, तदनन्तरं किं सकारः शकार भवितुम् अर्हति, अपि तस्मात् प्राक् यदि धातुः सेट् अस्ति चेत् तत्र ईकारः अपि आगच्छति, अतः तत्र ईष्यते इति साधारणरूपं, यतोहि तत्र बन्ध धातुः हलन्तधातुः अस्ति चेत् आधिक्येन, सर्वदा इति नास्ति, तत्र मन् धातुः हलन्तधातुः अस्ति, मन् धातुः सेट् अस्ति वा न, तत्र मंस्यते इति एव रूपम् अस्ति, किन्तु वृत्तधातुः तत्र वर्तिष्यते इति अस्ति, तत्र इकारः आगच्छति खलु, अतः तत्र सेट् अत्र सेट् अस्ति, बन्ध धातुः अपि सेट् अस्ति, तत्र बन्धिष्यते इति रूपं भवति, अतः अंशत्रयं तत्र स्य इति एव वस्तुतरूपं, वस्तुतप्रत्ययः आगच्छति तत्र, यद् आगच्छति अत्र स्य इति अस्ति, तद् श्या इति भवति, तदनन्तरं सेट् अस्ति चेत् इकारः आगच्छति, अपि अन्यः एकः अंशः अस्ति, नाम तत्र गुण अपि भवितुम् अर्हति, तत्र सन्धिकार्यम् अस्ति, यतोहि तत्र धातुः अस्ति चेत् तत्र किं भवति, क्रेष्यते इति भवति, अपि तत्र वृत् अस्ति चेत् तत्र किं भवति, वर्तिष्यते इति खलु, अतः तत्र किञ्चित् सन्धिकार्यम् अस्ति, तदनन्तरम् अत्र इष्यते इति भवति, तत्र वर् इति भवति खलु, वृत् इति स्थाने वर् इति आगच्छति खलु, तत्र वर्तिष्यते सन्धिकार्यम् अस्ति, अतः तदेव. अतः एते अंशाः वयं परस्मैपदीधातूनां विषये अपि दृष्टवन्तः. तत्र वयं किं स्वीकृतवन्तः, तत्र पि धातुः अस्ति चेत् तत्र मूलरूपं किं भवति, पि धातुः पिबति, किन्तु लृट्लकररूपे किम् अस्ति, पिबति पास्यति इति भवति, अतः स्यकारः मन्ते मध्ये आगच्छति. नरेश महोदय नमस्कारः.
नमस्कारः
महोदय. तत्र षडशीतितमे पुटे स्मः महोदय. अतः तत्र यकारः मध्ये आगच्छति. अपि तत्र पट् इति अस्ति चेत् तत्र पठिष्यति इति जानीमः, अतः इडागमः भवति इति अपि जानीमः, शकारस्य शकारः भवति अपि जानीमः खलु. अपि तत् हा अपि अन्तिमं तत्र तत्र नयति इति अस्ति, तत्र नी धातुः, तत्र लृट्लकररूपं किम् अस्ति, नेष्यति. अतः तत्र नयति किं भवति, न योगः स्यति इति भवति, किन्तु केवलं नस्यति इति नास्ति, किन्तु नियोगः स्यति इति भवति, नीष्यति इति नास्ति, किन्तु नेष्यति. अतः सन्धिकार्यं कृत्वा नेष्यति इति भवति. अतः स्य इति एव वस्तुतरूपं यत् मध्ये स्थापनीयं, किन्तु साधारणरूपं वयं किं चिन्तयामः, इष्यते, वन्द् वन्दिष्यते, वन्दिष्येते, वन्दिष्यन्ते इति एव चिन्तयामः, तदपि समीचीनमेव. अस्तु, अतः तत्र विशिष्टरूपं दृष्ट्वा क्लेशः मास्तु, विशिष्टरूपाणाम् अवगमनं कर्तुं शक्नुमः. अतः तत्र किञ्चित् परिशीलयामः, तत्र क्रू धातुः करिष्यते, तत्र सन्धिकार्यम् अस्ति वा,
नास्ति, या अस्ति अत्र क्रि कर भवति,
अतः तत्र सन्धिकार्यम् अस्ति. हा सन्धिकार्यम् अस्ति. हा अपि भासते भासिष्यते, तत्र इडागमः अस्ति वा, भासिष्यते, भासिष्यते, तत्र इडागमः अस्ति. हा समीचीनम्. अतः तावदेव. अतः तत्र यदि वयं तत्र बन्ध धातोः भविष्यत्कालरूपं लृट्लकाररूपं स्मरामः, अपि मन् मन्स्यते इति स्मरामः, अपि तत्र वृत् वर्तिष्यते इति स्मरामः, तत्र सर्वे अंशाः तत्र सन्ति. अंशाः के, शोभा भगिनी? लट्लकारात् लृट्लकारं गन्तुम् इच्छामश्चेत्?
आम् महोदय, तत्र प्रथमतया धातुः मूलधातुः योगः प्रत्ययः यथा स्या अथवा इष् प्रत्ययः, अपि च सन्धि इडागमस्य सन्धिकार्यं भूत्वा भवति इति मन्ये. अस्ति चेत् इडागमः भवति, इ आगच्छति, अनन्तरं लकारानुसारं तिङ् प्रत्ययः.
हा सत्यं. हा अपि तत्र, हा तत्र ते एते अन्ते इति तत्तु अस्ति एव, तदनन्तरं तत्र प्रायशः तस्मात् प्राक् तत्र मध्ये गुणमपि
भवति, प्रत्ययस्य कारणेन गुणः अपि भवितुम् अर्हति.
तावत्
तत्र अर्धधातुक स्या अर्धधातुक प्रत्ययः स्या इष् इति श्या ते, अतः अर्धधातुक सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति.
हा तत्र इकार तत्र प्रायशः तत्र हल् धातुः अस्ति चेत् हल् धातुः अस्ति चेत् प्रायशः तत्र श्य इति भवति, तदनन्तरं यदि हल् धातुः तत्र हलन्तधातुः तत्र अनीट् अस्ति चेत् तत्र गुणं किमपि न भवति, यतोहि तत्र इकारः मध्ये नास्ति. तत्र केवलं तत्र वन्दिष्यते इति एव भवति, अतः गुणं किमपि न भवति. यदि हलन्तम् अस्ति चेत् तत्र तदपि वक्तुं शक्नुमः, तत्र हलन्तधातवः आधिक्येन तत्र सेट् एव सन्ति. तत्र मन् इति तत्र तदपि अस्ति, अतः सर्वदा इति नास्ति, हलन्तधातु सर्वदा सेट् इति न, किन्तु हलन्तधातु आधिक्येन सेट् सन्ति. अपि तत्र यत्र अजन्तधातु अस्ति चेत् तत्र निश्चयेन तत्र किमपि सन्धिकार्यं भवति, तत्र क्रू अस्ति चेत् तत्र करिष्यते इति भवति. अतः तावदेव. अस्तु तर्हि इदानीं तत्र अत्र अनेके तत्र अभ्यासान् सर्वान् कृतवन्तः इति मन्ये, अतः केवलं तत्र अन्तिमभागः एव करणीयः अस्ति इति मन्ये. अतः तत्र लौकिकन्यायाः इति अस्ति, अतः तत्र गच्छामः तत्र नवतितमे पुटे. हा वदतु भगिनि.
विशिष्टधातुः अपि अस्ति, भुज्धातु.
भुज्धातुः, हा भुज्धातुः, सत्यं भगिनि. तत्र भुज्धातुः तत्र पुनः तत्र जकारस्य ककारः भवति सन्धिकार्यं कृत्वा, तदनन्तरं ककारः अपि स्यकारः तत्र क्ष्य इति भवति, अपि उकारस्य ओकारः भवति. सत्यं भगिनि, सत्यं सत्यम्. अतः तत्र केवलं वन्दिष्यते मन् वृत् इति न, तत्र भुज् अपि तत्र स्थापनीयमस्ति. सत्यं भगिनि, हा धन्यवादः. अतः तत्र यदि एतानि विशिष्टरूपाणि जानीमः, अपि तत्र सामान्यरूपं जानीमः, तत्र ऊहां कर्तुं शक्नुमः, तत्र अनुमानं कर्तुं शक्नुमः, तत्र लट्लकारं दृष्ट्वा लृट्लकारः कः इति अनुमानं शक्तुं इति अनुमानं कर्तुं शक्नुमः. अस्तु तर्हि अन्य प्रश्नाः सन्ति वा अस्मिन् विषये? अतः तत्र तत्र रूपाणि गतवर्गे दृष्टवन्तः, अपि अभ्यासमपि कृतवन्तः. केवलं तत्र अन्तिमभागः अस्ति तत्र लौकिकन्यायाः इति, तद् पठित्वा तत्र अग्रे इदानीं तत्र नूतनलकारः आगच्छति. अस्तु, अतः अस्तु तर्हि तत्र गीताञ्जलि भगिनी पठति वा तत्र लौकिकन्यायाः इति? नवतितमे पुटे.
लौकिकन्यायाः
लौकिकन्यायाः अन्यायः नहि
लौकिकन्यायाः इत्युक्ते यत्
लोके यद् भवति तत् लौकिकविषयः, लौकिकविषयेषु न्यायः कीदृशः इति. तत्र अनेकविधाः सन्ति न्याय, अतः तत्र अनेके न्यायाः सन्ति, तस्मिन् तेषु तत्र न्यायद्वयम् अत्र दत्तमस्ति.
कश्चित् काकः यदा तालवृक्षस्य समीपम् आगच्छत् तदा एव तस्मात् वृक्षात् पक्वं फलम् अधः न्यपतत्. काकः तच्च फलं खादित्वा सन्तुष्टः अभवत्. एवम् अकस्मादेव अविचिन्तितरूपेण घटनाद्वयं प्रवर्तते तदा एषः न्यायः प्रयुज्यते. इत्युक्ते घटनाद्वयं, प्रथमघटना तु काक एव तत्र गच्छति इत्युक्ते काकः आगच्छत् प्रथम घटना इति
समीचीनं भगिनि. तत्र ताळवृक्षः अस्ति इति स्वीकुर्मः, तत्र ताळवृक्षः अस्ति, इदानीं किं भवति,
समीपं काकः आगच्छत् प्रथमकार्यं
प्रथमा घटना अस्ति तत्र काकः कश्चित् काकः अथवा कश्चन काकः ताळवृक्षस्य समीपम्
आगच्छत्
आगच्छत् इति तत्र
आगच्छतु लङ् रूपं महोदय.
हा सत्यं, तत्र क्रिया लट्लकारे किम् अस्ति,
आगच्छति
आगच्छति.
तदा एव तस्मात् वृक्षात् पक्वं फलम् अधः न्यपतत्
न्यपतत् इति किमस्ति पुनः
न्यपतत् इत्युक्ते क्षिपति.
हा समीचीनं, पुनः तत्र भूतकालरूपं लट्लकारे किम् अस्ति,
लट्लकाररूपं निपतति वा.
हा समीचीनं भगिनि, हा निपतति. तत्र पतति अस्ति चेत् तत्र किं भवति,
अपतत्
अपतत् अपि जानीमः. तत्र उपसर्ग अस्ति अस्ति चेत् किं कुर्मः,
उपसर्ग अस्ति
नियोगः पतति. इदानीं तत्र पतति स्थाने अपतत् इति भवति, तदनन्तरं नियोगः सत्यं, अतः न्यपतत् इति भवति. तत्र पूर्वस्मिन् वाक्ये तत्र अयोगः अगच्छत् इति आसीत्, अतः आगच्छत् इति अस्ति, अत्र नियोगः अपतत् अतः न्यपतत्. इदानीं तत्र एषा द्वितीया घटना. तत्र वृक्षात् पक्वं फलम् अधः न्यपतत्.
तस्मिन् समये एव
तदा एव सत्यं,
तदा एव पक्वं फलं न्यपतत्. काकः तच्च फलं खादित्वा सन्तुष्टः अभवत्. एवम् एकस्मादेव अविचिन्तितरूपेण अविचिन्तितरूपेण घटनाद्वयं प्रवर्तते, तदा एषः न्यायः प्रयुज्यते. घटनाद्वयम् एकस्मात् समये भवति चेत्
अपि तत्र घटनाद्वयं किं भवति, तत्र अकस्मादेव, तत्र
अकस्मात् भवति एव,
नाम तत्र कारणं नास्ति, तत्र तयोः मध्ये कोऽपि सम्बन्धः नास्ति खलु. तत्र प्रथमा घटना अस्ति, द्वितीया घटना अस्ति, तत्र तयोः मध्ये कोऽपि सम्बन्धः नास्ति खलु. अकस्मात् द्वितीया घटना अभवत्.
यथा फलं पक्वं फलं निपत्य इति समीचीनं महोदय.
हा प्रायश निपत्य इति एव अस्ति, निपत्य इति मन्ये भगिनि.
फलं निपत्य काकः खादति, तत्तु अकस्मात् नास्ति, किन्तु घटनाद्वयं तु अकस्मात् एव.
हा अतः तत्र अकस्मादेव तत्र घटनाद्वयं भवति. अपि तत्र अविचिन्तितरूपेण इत्युक्ते चिन्तनं विना इति, तत्र तत्र कोऽपि चिन्तनं कृत्वा अस्तु तत्र एषा घटना अपि अस्मिन् एव समये भवतु इति तत्र कस्यापि चिन्तनं तादृशं नासीत्. हा अतः तत्र तत्र यदा मार्गे गच्छामः तत्र अकस्मात् तत्र वृष्टिः भवति, तत्र कोऽपि चिन्तितवान् तत्र वृष्टिः भवति न वा इति, तादृश तत्र घटनाद्वयं भवति अविचिन्तितरूपेण. यदा एतादृशं घटनाद्वयं प्रवर्तते भवति तदा न्याय कः न्यायः प्रयुज्यते काकतालीयन्यायः प्रवर्तते प्रयुज्यते हा तत्र कोऽपि सम्बन्धः नास्ति तत्र कोरिलेशन् इति वदामः खलु तत्र कोऽपि सम्बन्धः नास्ति ये प्रथमा घटना अभवत् द्वितीया घटना अपि अभवत् किन्तु कोऽपि सम्बन्धः तयोः मध्ये नास्ति तत्र एतादृशन्यायस्य अन्यानि उदाहरणानि कोऽपि वक्तुं शक्नोति वा तत्र वास्तविक उदाहरणम् इति नास्ति तत्र यथा अस्मिन् उदाहरणे अस्ति तत्र काकः आगच्छति फलम् अपतत् तादृशम् अन्यत् अपि कोऽपि वक्तुम् इच्छति वा तत्र केवलम् अभ्यासार्थम् आम्
महोदय यदा आपणं गच्छामि तदा मम मित्रमपि तत्रैव आगच्छति
हा इति अतः तत्र तस्मिन् समये काकतालीयन्यायः इति
काकतालीयन्यायः
भवति समीचीनम् अस्तु हा लक्ष्मी भगिनी
यादृच्छिकम् अपि समानपदमेव
किं भगिनि
यादृच्छिकम्
यादृच्छकम् इत्युक्ते किं भगिनि न जानामि भगिनि किन्तु अकस्मात् यदि घटनाद्वयं भवति चेत् तत्र काकतालीयन्यायः इति
न्याय कथमस्ति
एतत् न्यायः इत्युक्ते तत्र तादृशः अस्ति इति तावदेव महोदय एतत् तत्र प्रसिद्ध उदाहरणम् इति चिन्तयतु काकतालीयन्यायः इत्युक्ते एकम् उदाहरणम् अस्मिन् उदाहरणे किं भवति तदेव यदि किमपि घटना प्रवर्तते अस्माकं जीवने तदा वयं किं वदामः अस्तु एषा घटना कीदृशी अस्ति इति प्रश्ने एषा घटना एतस्य उदाहरणस्य सदृशम् अस्ति इति वदामः
न्याय
इत्युक्ते तत्र न्याय इत्युक्ते तत्र जस्टिस् इति तादृश अर्थे नास्ति हा न्याय इत्युक्ते एतादृशसन्दर्भः इति उदाहरणं स्वीकृत्य तत्र किम् अस्ति तत्र सम्बन्धः तत्र सर्वं तत्र अवगमनं भवति इति अग्रिममपि पश्यामः तत्र भवान् तत्रापि तत्र ज्ञातुं तत्र एतत् प्रथमवारं तत्र न्यायस्य विषयं दृष्टवन्तः पूर्वं कुत्र आसीत् इति न स्मरामि तत्र एतत्तु चतुर्थन्यायः अस्ति किन्तु प्रथमा द्वितीया तृतीया कुत्र आसन् इति न स्मरामि किन्तु किन्तु चिन्ता मास्तु तदनन्तरं पश्यामः अनन्तरं पश्यामः किन्तु तत्र उदाहरणम् इति चिन्तयतु तत्र अस्ति तत्र किम् अष्टचत्वारिंशत्तमे पुटे अस्ति तत्र न्यायाः प्रायशः तदपि अस्तु तत्र किं कुर्मः तत्र यदस्ति अस्मिन् पुटे तद् पठित्वा तत्र पूर्वं यद् न्यायाः आसन् तानपि पठामः अस्तु ततः तत्र न्यायः कः इति सम्यक् अवगमनं भवति अस्तु तर्हि तत्र अग्रे लक्ष्मी भगिनि अग्रिमन्यायः पठति वा भगिनि
आम् पठामि घट्टकुटीप्रभात न्यायः कथ्यते यत् शकटवान् वणिक् कश्चन करं दातुं न इच्छति स्म राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठभ्यः अधिकारिभ्यः करः दातव्यः भवति इति चिन्तयित्वा सः तं मार्गं परिहरन् केनचित् दुर्मार्गेण दुर्गमेण मार्गेण रात्रौ प्रस्थितः। किन्तु इतस्ततः अटन् सः दौर्भाग्येण प्रभाते घट्टकुटीरसमीपम् एव आगत्य अतिष्ठत्। विवशः सः करं दत्तवान्। कार्यं परिहर्तुम् इच्छायां सत्याम् अपि तत् अन्ततो गत्वा यदा अवश्यं करणीयं भवति तदा एषः न्यायः प्रयुज्यते
इति। अस्तु, तत्र प्रथमतया तत्र सरलरूपेण तत्र घटना का इति अवगमनम् अस्ति वा?
आ, आम् शकटवान्, एकः शकटवान्
शकटवान् इत्युक्ते कः?
शकटः कार्ट् इति।
किन्तु आङ्ग्लभाषा मास्तु तत्र, यत् तत्र वयं जानीमः तत् खलु, तत्र भारतदेशे तत्र किम् आपणः अस्ति, विपणिः अस्ति। विपणिः नाम किम्? आपणः इति युक्ते किं, विपणिः इत्युक्ते किम्?
आपणः यदा अहं वयम्
एकः आपणः अस्ति, किन्तु विपणिः इत्युक्ते तत्र
बहवः आपणः सन्ति, यत्र सन्ति
तत्र विपणिः इति वदामः। अपि वयं जानीमः तत्र भारतदेशे तत्र मार्गे अपि तत्र कोऽपि पुरुषः वाणिज्यं करोति, तस्य पार्श्वे तत्र किम् आपणः अपि नास्ति, किन्तु तत्र फलानि सः विक्रीणाति, तत्र येन सः नयति फलानि नयति अपि प्रदर्शयति, यस्य उपरि फलानि स्थापयित्वा सः विक्रयणं करोति सः शकटः। यद् भवती उक्तवती तदेव, किन्तु संस्कृतेन वक्तव्यं खलु। अतः शकटः, यानं तत्तु, किन्तु तत्र यानम् इत्युक्ते तत्र येन तत्र जनाः एकस्थलतः अन्यत् स्थलं गन्तुं शक्नुवन्ति, तत्र मार्गः इति भवति यानं खलु। मार्गः इत्युक्ते मार्गः न, तत्र तत्र माध्यमम् इति, येन तत्र लोकयानम् इति, तत्र येन वयं बेङ्गलूरुतः मैसूरुनगरं गन्तुं शक्नुमः, अथवा चेन्नैनगरतः तत्र दिल्ली नगरं गन्तुं शक्नुमः, तत्र यानं, किन्तु एषः शकटः। किञ्चित् तत्र भेदः अस्ति, भेदः अस्ति। इदानीं तत्र शकटवान् इत्युक्ते कः?
यः शकटं चालयति सः शकटवान्।
यस्य शकटः अस्ति तत्र तत्र
यस्य शकटः अस्ति
तत्र शकटवान्, शकटवत् शकटवान्, अत्र वणिक् अस्ति शकटवान्। तत्र वणिक् इति अस्ति, तस्य शकटं शकटः अस्ति, अतः तत्र कस्य शकटः अस्ति? वणिक् अस्ति, वणिजः शकटः अस्ति, अतः वणिक् शकटवान् इति वदामः। अपि तत्र कश्चन इति अस्ति, इदानीं तत्र कश्चन इत्युक्ते कः?
कः योगचित्,
कः योगचन, कश्चन, किन्तु कश्चन इति पदं तत्र अन्वयः कुत्र अस्ति? नाम कः कश्चन, किन्तु तत्र कश्चन
योगचन,
इदानीं तत्र कथ्यते यत् शकटवान् वणिक् कश्चन करं दातुम् इति अस्ति, तत्र कश्चन करम् इति वा अथवा अन्यत् वा?
कश्चन शकटवान्,
कश्चन वणिक् शकटवान् इति एव। अतः तत्र कश्चन इति साधारणतया किं भवति, आरम्भे भवति,
वयं न जानीमः, कश्चन वणिक्,
कश्चन वणिक् शकटवान् वणिक्, सः किं कर्तुं न इच्छति स्म?
सः करं दातुं न इच्छति स्म।
तत्र करः इत्युक्ते किं, कः
करः?
तत्र करं दातुं न इच्छति स्म इति,
धनं दातव्यं,
धनं, तत्र धनम् अस्ति सत्यं, तत्र करः इत्युक्ते
शुल्कः
इति वक्तुं शक्नुमः, तत्र यत् राज्यं तत्र राज्यपालकाय वयं तत्र यदि धनमस्ति चेत् धनात् किञ्चित् भागं स्वीकृत्य वयं
देशस्य सीमा
तत्र हा तदपि अस्मिन् प्रसङ्गे तदेव अस्ति. तत्र हा एकप्रदेशात् अन्यत् प्रदेशं गच्छामश्चेत् तत्र किं भवति राजमार्गे इति इदानीं किम् अस्ति हैवे इति हा राजमार्गे तत्र किं भवति तत्र राजमार्गे तत्र शुल्कः दद्मः खलु. हा तदेव तत्र करं दातुं न इच्छति स्म एषः वणिक् कश्चन वणिक्. हा इदानीं किं भवति
राजमार्गेण सह
राजमार्गं त्यक्त्वा सः किं कृतवान्
सः अन्यमार्गं स्वीकृत्य इतस्ततः अटितवान्.
किन्तु अन्ते किं भवति
अन्ते सः तस्य घट्टकुटि एव आगत्य
तत्र तत्र दत्तवान्
धनं दत्तवान् दत्त्वा अनन्तरं गतवान्.
अस्तु अतः तत्र एषः न्यायः घट्टकुटी प्रभात न्यायः. इदानीं तत्र
रात्रौ
प्रपङ्क्तिशः अपि पश्यामः. अस्तु तत्र लक्ष्मी भगिनी तत्र द्वितीयवाक्यमपि तत्र किञ्चित् वदतु तत्र किं किम् अस्ति इति.
राजमार्गेण गमनेन तत्र घट्टकुट्यां तिष्ठभ्यः अधिकारिभ्यः करः दातव्यः भवति इति चिन्तयित्वा सः घट्टकुट्यां करं दातव्यम् इति सः चिन्तितवान्.
घट्टकुट्याम् इति विभक्तिका तत्र घट्टकुट्यां
सप्तमी
हा घट्टकुटी तत्र कुटीरः भवति खलु तत्र कुटीरः वा किमपि भवति यत्र के सन्ति तत्र तत्र घट्टकुट्यां के सन्ति
तत्र अधिकारिभ्यः सन्ति
न अधिकारिभ्यः इति विभक्तिका तत्र
अधिकारी अस्ति
समीचीनम् एकवचने अधिकारी अस्ति बहुवचने अत्र तु अधिकारिभ्यः इति अस्ति अतः बहुवचनं किम् अस्ति अधिकारी इति पदस्य
अधिकारिणः वा
हा सत्यम् अधिकारिण इति समीचीनं भगिनि हा अतः तत्र अधिकारिणः सन्ति तिष्ठन्ति तत्र तिष्ठन्तः भवन्ति
तिष्ठन्तः अधिकारिणः
अतः तेभ्यः करः दातव्यः अतः तत्र तेभ्यः इत्युक्ते केभ्यः तत्र तिष्ठभ्यः
अधिकारिभ्यः
चतुर्थीविभक्ति दातव्यः करः दातव्यः भवति दातव्यः भवति इति सः चिन्तयित्वा एतत् कदा भवति यदा सः राजमार्गेण राजमार्गेण गच्छति
गन्तुम् इच्छति चेत्
तस्मिन् समये सः तं मार्गं परिहरन् इत्युक्ते त्यक्त्वा परिहरन् परिहरन् सः वणिक् परिहरन् मार्गं कर्मपदं
मार्गं त्यक्त्वा केनचित् दुर्गमेण मार्गेण रात्रौ प्रसिद्धः.
दुर्गमेण इत्युक्ते किम् अस्ति दुर्गमः मार्गः कष्टकरमार्गः तत्र राजमार्ग इव तत्र सुलभतया गन्तुं न शक्नुमः. तत्र राजमार्गे किम् अस्तु इतः तत्र बेङ्गलूरुतः मैसूरुनगरं गन्तव्यं चेत् राजमार्गेण सुलभतया गन्तुं शक्नुमः. किन्तु एषः मार्गः दुर्गमः अस्ति तत्र दशनिमिषः गच्छामः तदनन्तरं स्थगनीयः भवति तदनन्तरं पुनः गच्छामः पुनः तत्र एकस्मिन् स्थले भवामः, अतः तत्र दुर्गमः मार्गः। एषः किं कृतवान्? दुर्गमेण मार्गेण रात्रौ प्रस्थितः,
रात्रौ प्रस्थानं कृतवान्।
हा अस्तु, इदानीम् अग्रे तत्र अन्य कोऽपि वदतु, तत्र नरेश महोदय अग्रे।
महोदय, किन्तु इतस्ततः अटन् सः दौर्भाग्येन प्रभाते घट्टकुटीसमीपम् एव आगत्य अतिष्ठत्।
सः किं किन्तु इतस्ततः इतस्तत इतः ततः अटन्
कुत्रापि मार्गे गतवान्, परन्तु तस्य दुर्भाग्य अस्ति, प्रभाते सः घट्टकुटीसमीपम् आगतवान्।
हा एव आगत्य अतिष्ठत्, तत्र एव स्थितवान्। तत्र घट्टकुटी या अस्ति तस्याः समीपमेव सः आगत्य अतिष्ठत्। तत्र आगत्य अतिष्ठत् तत्र ल्यबन्तमस्ति। अपि तत्र आगत्य इति क्रियापदं तत्र आगत्य इति अस्ति, तदनन्तरम् अतिष्ठत् इति अस्ति, किन्तु सः अन्या क्रिया अपि अत्र अस्ति, अटन् सः। हा अटन् तत्र इतस्ततः अटन् सः मार्गं न जानाति तत्र कथम् अग्रे गमनीयम् गन्तव्यम् इति न ज्ञात्वा तत्र इतस्ततः अटनं कृतवान्। अतः अटन् सः किं कृतवान्? तत्र आगतवान्। कुत्र आगतवान्? समीपम् आगतवान्, घट्टकुट्याः समीपम् आगतवान्, तत्र अतिष्ठत् सः। अग्रे
विवशः सः करं दत्तवान्।
हा तत्र विवशः इत्युक्ते अन्य कोऽपि मार्गः नास्ति, तत्र तत्र दातव्यः एव करः दातव्यः एव तत्र, अतः तत्र विवशः।
महोदय तत्र वशः वशे इत्युक्ते अस्माकं वशे अस्ति इति किल, तत्र वशे नास्ति इति वक्तुं शक्यते?
हा हा समीचीनं भगिनि, हा हा सत्यं सत्यं, तादृश एव अस्ति। हा
अस्माकं वशे नास्ति।
हा हा समीचीनं भगिनि, हा अहं न जानामि यदि तत्र अपि तत्र सः न इष्टवान् अपि तदपि वक्तुं शक्नुमः, तत्र सः न इष्टवान् अपि तत्र अन्य कोऽपि मार्गः अपि नास्ति, किन्तु अहं न जानामि यदि तत्र भवन्तः सर्वे तत्र महाभारतं दृष्टवन्तः न वा इति, किन्तु तत्र प्रसिद्धः तत्र अस्ति धृतराष्ट्रः सर्वदा वदति मे क्या करो मे विवश हूं इति, अतः तत्र विवशः सः करं दत्तवान्। अग्रिम महोदय,
कार्यं परिहर्तुम् इच्छायां सत्याम् अपि तत् अन्ततो गत्वा यदा अवशं करणीयं भवति तदा एषः न्यायः प्रयुज्यते।
हा तत्र कार्यं परिहर्तुं कार्यं तत्र एतत् करणीयमस्ति, किन्तु तत् न करोमि अहम् अन्यत् किमपि तत्र विना कृत्वा अग्रे गच्छामि इति तत्र परिहर्तुं तत्र अत्र कार्यं किम् अस्ति?
कार्यं तु
करदानम् इति कार्यं, तद् परिहर्तुं सः तस्य इच्छा आसीत्, किन्तु किम् अभवत् अन्ततो गत्वा
सः
तत् कार्यं तत्र करदानं करणीयम् आसीत् अवश्यं करणीयम् आसीत्, अतः तत्र यदा तादृशम् अस्माकं जीवने अपि भवति, कार्यं परिहर्तुम् इच्छामः किन्तु तत्र अवश्यं करणीयम् इति यदा पतति अथवा भवति तस्मिन् समये वयं किं वदामः? घट्टकुटी प्रभात न्यायः.
तत् उदाहरणम् अस्ति.
हा, तत्र घट्टकुटी, इदानीं तत्र घट्टकुटी प्रभात न्यायः इति यदि वदामः तत्र वयं स्मरामः, अस्तु घट्टकुटी अस्ति, वणिक् अस्ति, सः करधानं न कर्तुम् इष्टवान् किन्तु अन्ततो गत्वा कृतवान्. कस्मिन् समये कृतवान्? तत्र सः रात्रौ प्रस्थितः किन्तु अन्ततो गत्वा प्रभाते सः दत्तवान्, अतः तत्र प्रभात इति अस्ति. अतः घट्टकुटि प्रभात, अन्ततो गत्वा इति अर्थे प्रभात इति अस्ति. अस्तु, अतः तत्र एषः न्यायः समीचीनः अस्ति खलु. इदानीं तत्र न्यायः कः इति सम्यक्तया अवगन्तुं शक्नुमः इति मन्ये खलु.
अवगतवान्.
अस्तु, इदानीं तत्र अन्यः अंशः अपि तत्र तत्र व्याकरण अंशः अत्र अस्ति. तत्र कार्यं परिहर्तुम् इच्छायां सत्यामपि, तत्र इच्छायां सत्याम् इति कोऽपि जानाति वा तत्र रूपं कीदृशम् इति? सतिसप्तमी अस्ति तत्र इच्छा सती. यदि तत्र यदा इच्छा अस्ति, इच्छा सती अपि, तत् तत्र इच्छा आसीत्, तत्र कार्यं परिहर्तुम् इच्छा, तत्र यदा कार्यं परिहर्तुम् इच्छा सति तथापि तत् अन्ततो गत्वा अवश्यं करणीयम् इति भवति. तत्र सतिसप्तमी अस्ति, तत्र इच्छा सती इति. तत्र इच्छा सती किं भवति? इच्छा इति पदस्य सप्तमी किम् अस्ति? इच्छायां. हा, सती इति पदस्य सप्तमी किम् अस्ति?
सत्यां.
सत्याम् इति. इदानीं तत्र इच्छा सती इति पद, तत्र पदद्वयम् अस्ति. तत्र इच्छा सती इत्युक्ते किम्? इच्छा न जानीमः, किन्तु तत्र सती इति अस्ति, तत्र सती इत्युक्ते किम्? किं भगिनि?
वर्तते.
हा, वर्तते इति. हा, किन्तु तत्र रूपं कथं भवति तत्र सती इति? इच्छा सती इति अस्ति.
समये इति वा? तस्मिन् समये
न, इच्छा सती, इच्छा अस्ति चेत् इच्छा वर्तते इति. किन्तु तत्र वर्तते इति न किञ्चित् भिन्नम् अस्ति. तत्र वर्तते इति अर्थः, किन्तु व्याकरणरूपेण किञ्चित् वक्तव्यमस्ति तत्र, नाम तत्र इच्छा सति. तत्र सति, हा, समीचीनं भगिनि. हा, समीचीनं. तत्र अस् धातोः शत्रन्तरूपं किम् अस्ति?
सन्.
सन् इति पुल्लिङ्गे. सः भीमः गदाधरः सन् इति वदामः इति दृष्टवन्तः खलु. भूत्वा गदाधरः भूत्वा तत्र सन् इति. अस् धातोः शत्रन्तरूपं पुल्लिङ्गे सन् इति. स्त्रीलिङ्गे किम् अस्ति? सती. वयं जानीमः शत्रन्तरूपं तु विशेषणम् अस्ति खलु, अतः लिङ्गभेदः अस्ति. तत्र पुल्लिङ्गे सन् इति अस्ति, किन्तु स्त्रीलिङ्गे सती इति अस्ति. अत्र इच्छा इति अस्ति, इच्छा तु स्त्रीलिङ्गे अस्ति, अतः इच्छा सती. अतः तत्र इच्छा अस्ति इति, किन्तु अस्ति इति स्थाने किं कृतवन्तः? तत्र शत्रन्तरूपं स्थापितवन्तः. इच्छा सती. इदानीं तत्र यदि अथवा यदा इच्छा सति, तस्य स्थाने यदा इच्छा सति इति स्थाने, इच्छा सति इति स्थाने सतिसप्तमी कृतवन्तः, अतः इच्छायां सत्याम् इति अभवत्. अतः तत्र इच्छायां सत्यां सतिसप्तमी अस्ति, पुनः सति इत्युक्ते शत्रन्तरूपं स्त्रीलिङ्गे इति. अस्तु, तर्हि तत्र पूर्वस्मिन् पुटे ये न्यायाः सन्ति तद् इदानीं पठामः वा अथवा अग्रे तत्र अग्रिमे वर्गे पठामः, इदानीं तत्र विधिलिङ्ग् लकारः कुर्मः वा किम्? अस्तु अस्तु तर्हि, अतः तत्र अष्टचत्वारिंशत् तमे पुटे तत्र लौकिकन्यायः इति विशेषः अस्ति. अस्तु, इदानीं तत्र शोभा भगिनी इदानीं तत्र आरम्भं करोति वा भगिनि?
आं महोदय, तत्र अष्टाशीतिः वा?
न अष्टचत्वारिंशत्.
अष्टचत्वारिंशत्
पूर्वम् आसीत् तत्र प्रायशः न पठितवन्तः.
लौकिकन्यायः तत्रापि सन्ति, कोष्टके अस्ति तदेव किल महोदय?
सत्यं सत्यं भगिनि.
लौकिकन्यायः प्रस्तुतं कमपि अस्तु, प्रस्तुतं कमपि विषयं स्पष्टीकर्तुं संस्कृतसाहित्ये लौकिकन्यायानां प्रयोगः क्रियते. एतादृशाः शताधिकाः न्यायाः शास्त्रेषु काव्येषु च तत्र तत्र प्रयुक्ताः दृश्यन्ते. प्रथमम् अन्धपरम्पराण्यायः. अन्धपरम्पराण्यायः यदा कोऽपि जनः स्वबुद्ध्या अविचार्य अन्धः इव अन्येषाम् अनुकरणं करोति तदा एषः न्यायः प्रयुज्यते. सः न चिन्तयति यत् एतत् अनुकरणं स्वम् अन्धकारं प्रति नयति. तत् इदं तु बहुत्र बहुवारं भवति सर्वत्र भवति. तत्र विना विचारेण यदि कोऽपि अन्ये कुर्वन्तः सन्ति चेत् अन्ये अपि विना चिन्तयित्वा
अनुसरन्ति. तत्र अनुसरणम् अथवा अनुकरणम्
अनुकरणं भवति,
अनुकुर्वन्ति.
तदा तत् न्यायं न्यायः अन्धपरम्पराण्यायः इति उच्यते.
अन्धानां परम्परा इति
विचारं न करणीयमेव अन्धा इति भवति.
सत्यं, तत्र विचारणं कृत्वा एव तत्र किमपि करणीयं, किन्तु तत्र अविचार्य कार्यं कर्तुं गच्छति, अतः यथा अन्ये कुर्वन्ति तथैव अहमपि करोमि, तत्र तत् समीचीनं न वा इति अविचार्य यदि स एषः करोति तदा तत्र किं भवति, तत्र अनुकरणं किं भवति, तत्र अन्धपरम्परा न्यायः इति, यतोहि तत्र अनुकरणं तत्र एतत् अनुकरणं स्वम् इत्युक्ते तत्र अन्तिमवाक्यं तत्र सः न चिन्तयति यत् एतत् अनुकरणं
स्वम् अन्धकारं प्रति नयति.
स्वम् इत्युक्ते तम् एव,
यः करोति तम् अन्धकारं प्रति नयति.
अतः तत्र
मार्गः तु सम्यक् नास्ति. यत्र एतत् कृत्वा यत्र गच्छन्ति जनाः तत् मार्गं तस्मिन् मार्गे न
तस्मिन् मार्गे अन्धकारः एव अस्ति. अतः
तत्र प्रथमवाक्ये एव स्वबुद्ध्या इति दत्तं, स्वबुद्ध्या अविचार्य इति. तत्र किमपि यत् कोऽपि कुर्वन् अस्ति अपि च तेन किमपि लाभः अपि दृश्यते तदापि स्वबुद्ध्या विचारं कृत्वा एव अग्रे गन्तव्यम्
इति. समीचीनम्. अतः तत्र तत्र अन्धकारः इति एकः अंशः, अन्यः अंशः तत्र परम्परा इति अस्ति. यतोहि तत्र अनुकरणं भवति खलु, तत्र प्रथमस्य अनुकरणं द्वितीयः करोति, द्वितीयस्य अनुकरणं तृतीयः करोति इति कृत्वा तत्र
परम्परा
परम्परा इति स्थापितम् अस्ति. अतः
पद्धति भवति इत्यस्य अर्थे किल
सत्यं भगिनि, पद्धति अथवा परम्परा तत्र अन्धपरम्परा न्यायः इति. इदानीं तत्र इदानीम् उदाहरणं दृष्ट्वा तत्र उदाहरणत्रयं दृष्टवन्तः, तत्र काकतालीयन्यायः, घट्टकुटीप्रभातन्यायः, इदानीं तत्र अन्धपरम्पराण्यायः. समीचीनं, हा अस्तु. अग्रे तत्र सूर्यकुमारी भगिनी इदानीं तत्र
द्वितीयन्यायः अरुन्धतीदर्शनन्यायः
दर्शनन्यायः अरुन्धतीदर्शनन्यायः
दर्शनन्यायः यः अरुन्धतीनामकं तारकं प्रदर्शयितुम् इच्छति स्म इच्छति सः पूर्वम् अरुन्धत्याः समीपस्थं स्थूलम् अमुख्यं तारकं निर्दिशति पश्चात् अरुन्धतीं ग्राहयति एवं यदा सूक्ष्मः पदार्थः स्थूलेन पदार्थेन निर्दिश्यते तदा एषः न्यायः प्रयुज्यते.
एषः तु प्रसिद्धन्यायः अस्ति. तत्र तत्र विवाहसमये एतद् भवति.
तारकं नास्ति अपि ब्राह्मणः वदति दृश्यतु दृश्यतु.
तत्र अस्तु अस्तु सत्यं. तत्र प्रातःकाले तत्र रात्रौ ये दर्शनं कर्तुं शक्नुमः, किन्तु तत्र यदि मध्याह्नमस्ति चेत् मध्याह्नकाले किं तत्र. किन्तु तत्र अरुन्धतीनामकं तारकं प्रदर्शयितुम् इच्छामः. तत्र किं कुर्मः, तत्र व्याकरणांशाः अपि तत्र सन्ति, तदपि किञ्चित् तानपि परिशीलयामः. तत्र
तारकम्
इत्युक्ते किं
नक्षत्रं
नक्षत्रं प्रदर्शयितुं तुमुन् इच्छति यः इच्छति यः इच्छति यः सः सः किं करोति नाम तत्र अरुन्धतीनामकं तारकं तु सूक्ष्मतरं तारकम् अस्ति. तत्र तस्य तत्र तारकस्य दर्शनं सुलभतया न भवति न भवति.
तत्र तारकम् इति पुंलिङ्गे अस्ति वा तारकः अस्ति वा?
हा प्रायशः भगिनि, हा तारकः एव भवति. हा तारकः इति एव भवति, अतः तारकस्य इति प्रायशः अस्ति. हा
अस्तु.
हा तत्र तारकम् इति एव अस्ति भगिनि. हा तारकम् इति एव अस्ति, नपुंसकलिङ्गे एव अस्ति. हा नक्षत्रं तारकं
नक्षत्रः पुल्लिङ्गम्
नक्षत्रमपि
नपुंसकलिङ्गमिति नपुंसकलिङ्गमिति मन्ये भगिनि. हा नक्षत्राणि खलु. हा तत्र अरुन्धतीनामकं नक्षत्रं तु तत्र सूक्ष्मतरम् अस्ति. अतः तत्र एषः किं करोति, पूर्वं प्रथमतया अरुन्धत्याः समीपस्थम् इत्युक्ते एतत् बहुवारं भवती दृष्टवती तत्र समीपस्थम् इति. तत्र अन्य कोऽपि वदन्ति वा तत्र समीपस्थम् इत्युक्ते किमस्ति? स्थितं स्थं तत्र कोष्टकस्थम् इति. कोष्टकस्थानि पदानि चित्वा इति बहुवारं दृष्टवन्तः खलु. अतः तत्र समीपस्थं समीपं स्थितं स्थूलं तत्र सूक्ष्मं नास्ति स्थूलम् अमुख्यं मुख्यं नास्ति किन्तु अमुख्यं तारकं निर्दिशति, निर्दिशति इत्युक्ते प्रदर्शयति, एतत् पश्यतु, तत् नक्षत्रं पश्यतु, तद् दृष्ट्वा तदनन्तरम् ओ तत् पश्यति वा, अस्तु इदानीं तत्र तस्य समीपं पश्यतु, अस्तु तत्र सूक्ष्मनक्षत्रम् अस्ति, अतः तत्र पश्चात् अरुन्धतिं ग्राहयति. ग्राहयति इत्युक्ते किम् अस्ति? ग्राहयति तत्र गृह्णाति इति नास्ति खलु,
ग्राहयति
तत्र पठति वा अस्ति वा अथवा पाठयति वा अस्ति वा?
पाठयति,
हा पठति इति इव नास्ति, पाठयति इव अस्ति, नाम तत्र प्रेरणा निच्छति वदामः, प्रेरणा अस्ति, अन्यान् कारयति, सः सः पश्यति, सः सूक्ष्म अरुन्धतिं पश्यति, सः अरुन्धतिं गृह्णाति, किन्तु अन्यः कोऽपि अस्ति तं ग्राहयति. अहं पठामि अन्यान् पाठयामि इति तत्र, अतः तत्र ग्राहयति अन्यान्, अतः तत्र अरुन्धतिं ग्राहयति, पश्चात् अन्यान् तत्र अरुन्धतिं ग्राहयति, अतः अन्य कोऽपि अरुन्धतिं पश्यति, गृह्णाति, चक्षुषा गृह्णाति, गृह्णाति इत्युक्ते हस्ते गृह्णाति इति न, चक्षुषा गृह्णाति नाम पश्यति, चक्षुषा पश्य गृह्णाति नाम पश्यति, अतः तत्र एवं यदा सूक्ष्मः पदार्थः
स्थूलेन पदार्थेन निर्दिश्यते तदा एषः न्यायः
प्रयुज्यते. तत्र यदि वदामः तत्र उदाहरणार्थं तत्र यदि वदामः तत्र आत्मा इति अस्ति इति पश्यतु, आत्मा आत्मानं पश्यतु इति वदामश्चेत् तत्र किं भवति, क्लेशः भवति खलु, हा सूक्ष्मतरं सूक्ष्मतमम् अस्ति, किन्तु तत्र देह देहमस्ति, देहिन् आत्मा देहिन् अस्ति इति तत्र इति तत्र सोपानेन यदि गच्छामः स्थूलतः सूक्ष्मतरं सूक्ष्मतमम् इति यदि तादृशमार्गेण तेन मार्गेण गच्छामश्चेत् तत्र न्यायः किं भवति, अरुन्धति दर्शन न्यायः इति, अतः स्थूलात् सूक्ष्म गमनं, स्थूलात् स्थूलतः स्थूलात् सूक्ष्मं तावत् पर्यन्तं गमनं किं भवति, अरुन्धति दर्शन
न्यायः
न्यायः इति. अस्तु समीचीनम्. अस्तु तत्र अन्तिममस्ति, तत्र क अथवा का पठितुम् इच्छति, तत्र सर्वे पठितवन्तः इति मन्ये, किन्तु तत्र अस्तु गीताञ्जलि भगिनी तत्र करोति वा अग्रे.
गीताञ्जलि भगिनी उच्चैः पठतु.
अधुना सम्यक् वा? सम्यक् अस्ति. स्थालीपुलाकन्यायः इति
स्थालीपुलाकन्यायः
अन्ते तु न्यायः इति अस्ति
इति तु अवगतं, किन्तु स्थालीपुलाक विषये पठामि महोदय. यः ओदनं पचति सः ओदनं पक्वः न वा इति ज्ञातुं स्थाल्यां विद्यमानेभ्यः पुलाककणेभ्यः कमपि एकं सङ्गृह्य परीक्ष्यते. एकस्य कणस्य परीक्षणेन एव सर्वस्य ज्ञानं भवति. अत्र प्रत्येकं कणस्य परीक्षणस्य आवश्यकता न भवति. एवं परीक्षणविषय किं व्यक्तिं निर्देष्टुम् एषः न्यायः प्रयुज्यते. अस्तु महोदय, अत्र यथा ओदनं वयं पश्यामः, एकम् एव कणस्य परीक्षणेन वयं सर्वस्य सर्वेषाम् ओदनानां ज्ञानं भवामः तत् इति विषय अस्ति स्थाली पुलाकन् पुलाकन्यायः.
हा अस्तु, तत्र पुलाककणेभ्यः तत्र तत्र किम् ओदनम् ओदनं पचति तत्र अस्तु किञ्चित्
न जाने पुलाक इत्युक्ते ओदनं महोदय.
हा अत्र तु पुलाक इत्युक्ते ओदनमेव भगिनि, तत्र पुलाक इति ओदनम् इति तत्र ओदनम् इति तत्र यत् तत्र ओदनं पचामः किन्तु पचनानन्तरं किं भवति तत्र राशिः भवति खलु तत्र तत्र यदि तत्र दर्भ्या ओदनं स्वीकुर्मः स्वीकृत्य स्थालिकायां स्थापयामः तत्र किं भवति तत्र ओदनम् एकम् 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 इति भवति वा न खलु तत्र समूहः भवति खलु तत्र ओदनस्य तत्र हा पुलाककणाः इति
ओदनस्य राशि
हा ओदनस्य विविधा राशयः इति
राशयः
अत्र तादृशः पुलाककणेभ्यः तत्र पुलाककणाः सन्ति तत्र तेभ्यः कमपि एकं सङ्गृह्य तत्र परीक्षा करोति परीक्षां करोति सः
परीक्षां कृत्वा वयं सर्वेषाम् ओदनानां
तत्र हा अस्तु सत् समीचीनं भगिनि तत्र बृहत् तत्र किं बृहत् पात्रम् इति अस्ति तस्मिन् तत्र ओदनं हा तस्मिन् ओदनम् अस्ति ओदनस्य पचनम् इदानीं प्रवर्तते किन्तु तत्र प्रवर्तमानः अस्ति किन्तु तत्र इदानीं ज्ञातुम् इच्छामः तत्र कृतं न वा इति तत्र अतः तत्र सर्वं द्रष्टव्यं वा न खलु तत्र एकस्य कणस्य परीक्षणेन सर्वस्य ज्ञानं
भवति
हा इति अतः तत्र
सर्वाणि ओदनानि समानेव इति वयं मन्ये
अतः तत्र एकं दृष्ट्वा
एकं
दृष्ट्वा एव स्थितिः का इति ज्ञातुं शक्नुमः तत्र कृतम् अथवा न कृतम् इति जानीमः तत्र ओदनः पक्वः न वा इति ज्ञातुं शक्नुमः अतः तत्र किं वदन्ति तत्र एवं परीक्षा विषय किम्
एकगुणं
एवं परीक्षणविषयकीं व्यक्तिं निर्देष्टुम् एषः न्यायः प्रयुज्यते तत्र व्यक्तिम् इति अस्ति व्यक्तिम् इति तत्र पदं कीदृशम् अस्ति लिङ्गं किं व्यक्तिम् इति
कर्मपदं
हा निर्देष्टुम् इति कर्मपदं किन्तु तत्र लिङ्गं किम् अस्ति व्यक्तिम् इति
स्त्रीलिङ्गम्
हा व्यक्तिः इति मतिः शब्दवत् हा मतिवत् अतः तत्र व्यक्तिं व्यक्ति इति प्रथमविभक्तौ अत्र व्यक्तिमिति द्वितीयविभक्तिकर्मपदम् अतः किन्तु व्यक्तिः कीदृशी व्यक्तिः परीक्षणविषयकी व्यक्तिः यस्याः परीक्षणं कर्तुम् इच्छामः तत्र अथवा तत्र व्यक्तिं निर्देष्टुम् अस्तु तदपि तत्र सन्दर्भानुसारेण भवितुम् अर्हति तत्र तां व्यक्तिं प्रदर्शयित्वा वयं वदामः अस्तु तत्र पश्यतु एषा व्यक्तिः अस्ति तस्याः स्थितिः एषा अस्ति अतः सर्वेषाम् अपि समानस्थितिः भवेत् इति अस्मिन् समये तत्र स्थालीपुलाकन्यायः इति वदामः स्थालीपुलाकन्यायः
महोदय, तत्र व्यक्तिः स्त्रीलिङ्गे अस्ति. व्यक्तिम् इति सर्वेषां कृते अन्वय भवति
वा? न, एकम् एकं व्यक्तिं तत्र परीक्षणा विषये किं व्यक्तिं निर्देष्टुं.
किन्तु अत्र अस्मिन् वाक्ये तु स्त्रीलिङ्गे एव भवति.
अस्मिन् वाक्ये व्यक्तिः तु सर्वदा स्त्रीलिङ्गे एव अस्ति.
न न महोदय, परीक्षणविषये तत्र तु स्त्रीलिङ्गे भवति, किन्तु अन्वयः तु सर्वेषां कृते अस्ति किल?
हा सत्यं सत्यं, तत्र व्यक्तिः तत्र व्यक्तयः अनेकाः व्यक्तयः सन्ति. तासु तासु तत्र व्यक्तिः तत्र किमस्ति?
किमर्थं चेत् सामान्यतया वयं यदा समूहः भवति तत्र पुंलिङ्गः एव भवति सर्वेषां कृते, किन्तु व्यक्तिः इति आगच्छति चेत् तत्र
न न इदानीं तत्र समूहः इति अस्तु अस्तु, तद् भिन्नम् अस्ति भगिनि. अत्र केवलं तत्र सदस्यः इति अर्थे एव तावदेव.
किन्तु परीक्षणं तु सर्वेषां कृते तत्र किल? किमपि
सत्यं सत्यं
अथवा
तत्र ओदनः वा किमपि भवतु, तत्र तत्र पदार्थस्य लिङ्ग लिङ्गस्य विषयं विषयः अत्र किमपि नास्ति. पदार्थस्य लिङ्ग लिङ्गम् अत्र तस्य महत्वं किमपि नास्ति. तत्र केवलं वदामः तत्र अत्र ओदनम् इति व्यक्तिः भवति अत्र. अतः तत्र व्यक्तिः स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र ओदनमपि स्त्रीलिङ्गम् ओदनः इति स्त्रीलिङ्गे इति नास्ति, किन्तु अस्मिन् प्रसङ्गे ओदनः इति व्यक्तिः भवति.
अस्तु महोदय.
तत्र व्यक्तिः इति सर्वदा स्त्रीलिङ्गे एव अस्ति भगिनि.
आम् अतः पृष्टवती, किञ्चित् क्लेशः आसीत् तत्र.
तत्र केवलं तत्र
भवति चेत्
व्यक्तिं सदस्य तत्र सदस्यः इति अर्थे तत्र केवलम् एकः अस्ति इति मा चिन्तयतु. तत्र समूहः अस्ति, समूहे एकं चित्वा तत्र स्थितिः का इति दृष्ट्वा यदि समूहे ये ये सदस्याः सन्ति तेषां सर्वेषां सदस्यानां स्थितिः समाना इति वक्तुं शक्नुमः तस्मिन् सन्दर्भे तत्र स्थालीपुलाकन्यायः इति. अतः तत्र एकः सदस्यः अथवा एका व्यक्ति इति.
यथा तत्र एकम् उदाहरणम् अस्ति किल महोदय, यदि मृत्तिकां जानीमः तर्हि सर्वाणि घट सर्वाः सर्वे घटाः ज्ञातुं शक्नुमः इति.
हा हा सत्यं भगिनि, सत्यं सत्यं, हा समीचीनं, हा समीचीनं, हा तत्र तत् समीचीनं. किन्तु तत्र एषः न्यायः न भवेत् यतोहि तत्र घटः इति तत्र प्रायशः तत्र समूहे सर्वे
तत्र
समानरूपं एकः घटः एकं घटं दृष्ट्वा वयं ज्ञातुं शक्नुमः अस्तु तत्र घटः समीचीनः न वा इति तादृशार्थे. अतः तत्र परीक्षणविषयकीं व्यक्तिं परीक्षणविषयकी व्यक्तिः इति अस्तु. तत्र अत्र प्रायशः तत्र किञ्चित् एव तत्र आदौ तत्र वाक्यद्वयम् आसीत् तत्र तत्रापि किञ्चित् परिशीलनं भवेत्. तत्र नरेश् महोदय तत्र आरम्भे तत्र प्रस्तुतं कमपि विषयम् इति तत्र किञ्चित् पश्यामः तत्र किम् अस्ति इति. महोदय तत्र उदाहरणम् अन्धपरम्परा न्यायः अस्ति किन्तु तस्मात् प्राक् प्रस्तुतं कमपि विषयं
स्पष्टीकर्तुं संस्कृतसाहित्ये लौकिकन्यायानां प्रयोगः क्रियते. एतादृशाः शताधिकाः न्यायाः शास्त्रेषु काव्येषु च तत्र तत्र प्रयुक्ताः दृश्यन्ते.
अतः तत्र न्यायः इति, न्यायः इत्युक्ते कः न्यायः? तत्र प्रस्तुतं कमपि विषयं, तत्र कोऽपि विषयः अस्ति, तस्मिन् विषये तत्र किमपि वक्तुम् इच्छामः अथवा अवगन्तुम् इच्छामः, तत्र तस्य विषयं स्पष्टीकर्तुं, तत्र विषये किम् अस्ति इति तस्य.
एतत् उदाहरणं दत्तं स्पष्टीकरणं.
हा, तत्र वयं जानीमः. समीचीनं महोदय, तत्र उदाहरणम्, एतत् उदाहरणं दृष्ट्वा वयं तत्र विषयः कः इति सम्यक्तया ज्ञातुं शक्नुमः. अतः सम्यक् अवगमनार्थं न्यायः भवति. तत्र न्यायः कुत्र क्रियते? तत्र न्यायः तत्र संस्कृतसाहित्ये तत्र लौकिकन्यायानां षष्टिबहुवचनं प्रयोगः क्रियते. तत्र कति न्यायाः सन्ति? एतादृशाः शताधिकाः, इत्युक्ते अनेकाः सन्ति. केवलं शतं, तदनन्तरं तत्र शताधिकदशम् इति किमपि नास्ति. तत्र शताधिक इत्युक्ते सहस्रमपि भवितुम् अर्हति. तत्र शताधिकाः न्यायाः कुत्र सन्ति? शास्त्रेषु काव्येषु च तत्र तत्र प्रयुक्ताः दृश्यन्ते. तत्र तत्र इत्युक्ते सर्वत्र न, अत्र अस्ति, तदनन्तरम् अन्यत्र अस्ति, अतः तत्र तत्र प्रयुक्ताः, तेषां तत्र प्रयोजनम् अथवा प्रयोगः कृतं दृश्यते. तत्र वयम् एतान् न्यायान् द्रष्टुं शक्नुमः, तत्र साहित्ये, शास्त्रे अथवा काव्ये द्रष्टुं शक्नुमः. तत्र बहुत्र सन्ति एते न्यायाः.
बहवः न्यायाः सन्ति.
समीचीनं महोदय. अस्तु, तर्हि तत्र प्रायशः तत्र केवलं तत्र निमेषद्वयमस्ति, किन्तु तत्र इदानीं तत्र गच्छामः, तत्र एकनवतितमे पुटे तत्र सम्भाषणमस्ति, तत् पठितुं शक्नुमः इति मन्ये. अतः तत्र सूर्यकुमारी भगिनी अपि, तत्र लक्ष्मी भगिनी
पठति वा?
तत्र सूर्यकुमारी भगिनी सहदेव भवतु, तत्र लक्ष्मी भगिनी नकुलः. एकनवतितमे पुटे
महोदय, स्वधर्मः आचरितः भवति, विधिलिङ्गकारः
सम्भवनार्थे. तत्र विधिलिङ्गकारस्य अर्थद्वयमस्ति, सम्भावना इति एकः, अपि अन्यत् अस्ति तत्र विधि. इदानीं तत्र
नित्यशिबिरे रात्रौ सम्भाषणं कुरितः. भगिनी, अहं सहदेवः.
अस्तु, पठतु.
भ्रातः, श्वः युद्धस्य पञ्चमं दिनम्.
आं भ्राता, अद्यावधि पञ्चलक्षाधिकाः सैनिकाः वीरगतिं प्राप्तवन्तः.
श्वः किं किं भवेत् इति चिन्तयामि. कः युद्धारम्भं कुर्यात्?
तदतु सेनापतिः निश्चिनुयात्. भवान् केन सह युद्धं कुर्यात्?
ये पुरतः आगच्छेयुः तैः सह कुर्याम. अस्माकं व्यूहरचना कथं स्यात्?
प्रायः द्वौ व्यूहौ भवेताम् इति चिन्तयामि. आवां नेतृत्वं वहेम.
आत्मानं परितः अश्वदलः स्थाप एव.
अश्वदलं स्थाप एव.
अश्वदलं स्थाप एव.
कदाचित् पितामहः भीष्मः रणतन्त्रं परिवर्तयेत्. कौरवाः युगपत् सर्वत्र आपतेयुः. आपतेयुः.
चिन्ता न करणीया. कृष्णः तत् परिहारोपायं चिन्तयेत्.
कृष्णार्जुनौ श्वः अन्यत्र गच्छेदाम्. आवाभ्यां सह भ्राता भीमः तिष्ठेत्.
तदपि उत्तममेव. भीमं दृष्ट्वा कौरववीराः भीत्या धावयुः.
युद्धे वयं जयेम अथवा ते जयेयुः. किं तेन? अस्माभिस्तु स्वधर्मः आचरितः भवति.
आम्, तदैव कुर्मः.
इति समीचीनम्. अस्तु, तत्र इदानीं तत्र विधिलिङ्ग् लकारः सम्भावनार्थे, नाम तद् भवितुम् अर्हति, तद् प्रायशः अस्ति इति. अस्तु, अतः तत्र एषः विषय अग्रिमवर्गे कुर्मः. पुनः तत्र एतत् तत्र सम्भाषणं पठित्वा तत्र रूपस्य परिचयम् अपि तत्सर्वम् अग्रिमवर्गे कुर्मः. अस्तु, समीचीनमस्ति. तत्र गीताञ्जलिभगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि?
आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरि ॐ श्रीगुरुभ्यो नमः. हरि ॐ.
धन्यवादः भगिनी.